ओम नमो भगवते वासुदेवाय। अथ दशमोऽध्यायः। श्रीशुक उवाच। अथ सिन्धुसौवीरपते रहुगणस्य व्रजत इक्षुमत्यास्तटे तत्कुलपतिना शिबिकावाह पुरुषान्वेषणसमये दैवेनोपसादितः सद्विजवर उपलब्ध एष पीवा युवा संहननाङ्गो गोखरवद्धुरं वोढुमलमिति पूर्ववृष्टिगृहीतैः सह गृहीतः प्रसभमतदर्ह उवाह शिबिकां स महानुभावः। यदा हि द्विजवरस्येषु मात्रावलोकानुगतेर्न समाहिता पुरुषगतिस्तदा विषमगतां स्वशिबिकां रहुगण उपधार्य पुरुषानधिवहत आह हे वोढारः साध्वतिक्रमत किमिति विषममुह्यते यानमिति। अथ त ईश्वरवच सोपालम्भमुपाकर्ण्योपायतुरीयाच्छङ्कितमनसस्तं विज्ञापयां बभूवुः। न वयं नरदेव प्रमत्ता भवन्नियमानुपथाः साध्वेव वहामः। अयमधुनैव नियुक्तोऽपि न द्रुतं व्रजति नानेन सह वोढुमः वयं पारयाम इति। सांसर्गिको दोष एव नूनमेकस्यापि सर्वेषां सांसर्गिकाणां भवितुमर्हतीति निश्चित्य निशम्य कृपणवचो राजा रहुगण उपासितवृद्धोऽपि निसर्गेण बलात्कृत ईषदुत्थितमन्युरविस्पष्ट ब्रह्मतेजसं जातवेदसमिव रजसावृतमतिराह। अहो कष्टं भ्रातर्व्यक्तमुरुपरिश्रान्तो दीर्घमध्वानमेक एव ऊहिवान् सुचिरं नातिपीवा न संहननाङ्गो जरसा चोपद्रुतो भवान् सखेनो एवापर एते सङ्घट्टिन इति बहुविप्रलब्धोऽप्यविद्यया रचित द्रव्यगुणकर्माशय स्वचरमकलेवरे अवस्तूनि संस्थान विशेषेऽहं ममेत्यनध्यारोपितमिथ्या प्रत्ययो ब्रह्मभूतस्तूष्णीं शिबिकां पूर्ववधूवाह। अथ पुनः स्वशिबिकायां विषमगतायां प्रकुपित उवाच रहुगणः किमिदमरे त्वं जीवन्मृतो मां कदर्थीकृत्य भर्तृशासनमतिचरसि प्रमत्तस्य च ते करोमि चिकित्सां दण्डपाणिरिव जनताया यथा प्रकृतिं स्वां भजिष्यस इति। एवं बह्वबद्धमपि भाषमाणं नरदेवाभिमानं रजसा तमसानुविद्धेन मदेन तिरस्कृताशेष भगवत्प्रियनिकेतं पण्डितमानिनं स भगवान् ब्राह्मणो ब्रह्मभूतः सर्वभूतसुहृदात्मा योगेश्वरचर्यायां नातिव्युत्पन्नमतिं स्मयमानैव विगतस्मय इदमाह। ब्राह्मण उवाच त्वयोदितं व्यक्तमविप्रलब्धं भर्तुः समे स्याद्यदि वीरभारः गन्तुर्यदि स्यादधिगम्यमध्वा पीवेति राशौ न विदां प्रवादः। स्थौल्यं कार्ष्यं व्याधयाधयश्च क्षुत्रिड्भयं कलिरिच्छाजरा च निद्रारतिर्मन्युरहं मदः शुचो देहेन जातस्य हि मे न सन्ति जीवन्मृतत्वं नियमेन राजन् आद्यन्तवद् यद् विकृतस्य दृष्टम् स्वस्वाम्यभावो ध्रुवैड्य यत्र तर्ह्युच्यते सौ विधिकृत्य योगः। विशेषबुद्धेर्विवरं मनाच्च पश्याम यन्न व्यवहारतोऽन्यत् क ईश्वरस्तत्र किमीषितव्यं तथापि राजन् करवाम किं ते। उन्मत्तमत्तजडवत्स्वसंस्थां गतस्य मे वीरचिकित्सितेन अर्थः कियान् भवता शिक्षितेन स्तब्धप्रमत्तस्य च पिष्टपेशः। श्रीशुक उवाच एतावदनुवादपरिभाषया प्रत्युदीर्य मुनिवर उपशमशील उपरतानात्म्यनिमित्त उपभोगेन कर्मारब्धं व्यपनयन् राजयानमपि तथोवाह। स चापि पाण्डवेय सिन्धुसौवीरपतिस्तत्त्वजिज्ञासायां सम्यक् श्रद्धयाधिकृताधिकारस्तद्धृतय ग्रन्थिमोचनम् द्विजवचाश्रुत्य बहुयोगग्रन्थसम्मतं त्वरयावरुह्य शिरसा पादमूलमुपसृतः क्षमापयन् विगतनृपदेवस्मय उवाच कस्त्वं निगूढश्चरसि द्विजानां बिभर्षिसूत्रं कतमोऽवधूतः कस्यासि कुत्रत्य इहापि कस्मात् क्षेमाय नश्चेदसि नोत शुक्लः। नाहं विशङ्के सुरराजवज्रान्न त्रक्षशूलान्न यमस्य दण्डात् नाग्न्यर्कसोमानिलवित्तपास्त्राच्छङ्के भृशं ब्रह्मकुडावमानात् तद्ब्रूह्य सङ्गो जडवन्निगूढ विज्ञानवीर्यो विचरस्य पारः वचांसि योगग्रसितानि साधो न क्षमन्ते मनसापि भेत्तुम् अहं च योगेश्वरमात्मतत्त्वविदां मुनीनां परमं गुरुं वै प्रष्टुं प्रवृत्तः किमिहारणं तत् साक्षाद्धरिं ज्ञानकलावतीर्णम् स वै भवान् लोकनिरीक्षणार्थमव्यक्तलिङ्गो विचरत्यपि स्वित् योगेश्वराणां गतिमन्दबुद्धिः कथं विचक्षीत गृहानुबन्धः दृष्टाश्रमः कर्मत आत्मनो वै भर्तुर्गन्तुर्भवतश्चानुमन्ये यथा सतोदानयनाद्यभावात् समूल इष्टो व्यवहारमार्गः स्थाल्यग्नितापात् पयसोऽभितापस्तत्तापतस्तण्डुलगर्भरन्धिः देहेन्द्रियाश्वाशयसन्निकर्षात् तत्संसृतिपुरुषस्यानुरोधात् शास्ताभिगोप्ता नृपतिः प्रजानाम् यः किम् करो वै नपि नष्टिपिष्टम् स्वधर्ममाराधनमच्युतस्य यदिह मानो विजहात्य घौघम् तन्मे भवान् नरदेवाभिमानमदेन तुच्छीकृतसत्तमस्य कृतिष्टमैत्री दृशमार्तबन्धो यथा तरे सदवध्यानमम् हः न विक्रिया विश्वसुहृत्सखस्य साम्येन वीताभिमतेस्तवापि महद्विमानात् स्वकृताद्धिमाद्रिं नङ्क्षत्य दूरादपि शूलपाणिः ॐ स्वस्ति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां पञ्चमस्कन्धे दशमोऽध्यायः श्रीकृष्णार्पणमस्तु नमोऽस्तु ते महायोगिन् प्रपन्नमनुषाधिमां यथा त्वच्चरणाम्भोजे रतिः स्यादनपायिनी।